रत्नैकल्पितमासनम् हिमजलैः स्नानम् च दिव्याम्बरम् नानारत्न विभूषितम् मृगमदामोदाङ्कितम् चन्दनम् जाजीचम्पकबिल्वपत्रचितम् पुष्पम् च धूपम् तथा दीपम् देवतजानिधे पशुपते कृत्कल्पितम् गृह्यताम् सौवर्णे मणिकण्डरत्नरचिते पात्रे चितम् पायसम् भक्ष्यम् पञ्चविधम् पजोदधियुतम् रम्भाफलम् पानकम् शाकानामयुतम् जलम् रुचिकरम् कर्पूरखण्डोज्ज्वलम् ताम्बूलम् मनसा मया विरचितम् भक्त्या प्रभा स्वीकुरु शतम् चामरयोर्युगम् यजनकम् चादर्शकम् निर्मलम् वीणाभेदिभृतङ्गकमलकला गीतम् च नृत्यम् तथा साष्टाङ्गम् प्रणतिस्तुतिर्बहुविधाः एतत्समस्तम् मया सङ्कल्पेन समर्पितम् तव विभो पूजाङ्गृहाणप्रभो आत्मात्मम् गिरिजामरिपरिजनाः प्राणाशरीरम् गृहम् पूजाते विषयोपभोगरचना निद्रासमाधिस्थितिः सञ्चारपदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वाभिरु यत्कर्म करोति तत्तदखिलम् शम्भो तव आराधनम् शम्भो तव आराधनम् शम्भो तव आराधनम् करचरणकृतम् वाकम् वाक्काय जम्बा श्रवणनयनजम् वा मानसम् वापराधम् विहितमविहितम् वा सर्वमेतच्छमस्व शिवशिवकरुणार्थे महादेव शम्भो जय जय करुणार्थे श्रीमहादेव शम्भो जय जय करुणार्थे महादेव शम्भो महादेव शम्भो हरणमः पार्वतीपतये